एस रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। बझाङ जनपदस्य मष्टा ग्रामपालिकायां ह्यो दुरापन्नायां जीपयानस्य दुर्घटनायां मृतानां जनानां संख्या सप्त प्राप्ता वर्तते। दुर्घटनायां षोडश जनाः आहताः सन्ति। जनपद मुख्यालयात् चैनपुराद मष्टा ग्रामपालिकाया द्वितीयवडा क्षेत्र स्थिताय खेटाकोट स्थानाय प्रस्थीयमानं जीपयानं ह्य अपराह्नस्य चतुर्वादने दुर्घटितं सद् षड् घटनास्थले एव एकश्च जनः उपचारस्य क्रमे अम्रियन्त। दुर्घटनायाम् आहतानां षोडश जनानां जनपद चिकित्सालये उपचारः विद्यमानो वर्तते। दुर्घटनायां मृतेषु मष्टा ग्रामपालिकाया द्वितीयवडा क्षेत्रवर्तिनः खेटकोट स्थानस्य त्रयोदश वर्षीया सम्झना खड्का, पञ्चदश वर्षीय रोशन खड्का, अष्टाविंशति वर्षीय वसन्ती धामी, त्रयोदश वर्षीय प्रचण्ड खड्का, अष्टात्रिंशत् वर्षीय वीरेन्द्र अधिकारी, सप्तमासा नाम बालिका दक्षिता कठायत, कञ्चनपुर जनपदस्य शुक्ला फाटा नगरपालिकायां गृहस्थ द्विचत्वारिंशत् वर्षीय झरेन्द्र बोहरा च सन्ति। दुर्घटनायाम् आहतानां षोडश जनानां मध्ये गभीरावस्थायाः पञ्च जनाः उपचाराय धनगढ़ी स्थानं प्रेषिताः सन्तीति बझाङ जनपद प्रहरी कार्यालयस्य सूचनाधिकारी रमेश दत्त अवस्थी अवोचत। जनपद मुख्यालय चैनपुर स्थाने आयोजितां शीलदेवी मेलां विलोक्य प्रत्यावृतैः यात्रिभिः आरूढं जीपयानं दुर्घटितम् आसीत्। अवज्रीकृते मार्गे क्षमतातः अधिकानां यात्रिणां वहनेन जीपयानं दुर्घटितमिति सम्भाव्यते इति प्रहरी ज्ञापयति। तज्जीपयानं मार्गात् शतद्वय मीटर मितादः पतितम् आसीत्। निर्वाचन आयोगेन राजनैतिक दलानि प्रत्याशिनश्च आचार संहितायाः क्रियान्वयनं कर्तुं सप्तसूत्रात्मक निर्देशनेन निर्दिष्टाः सन्ति। आयोगेन ह्यो विज्ञप्तिं प्रकाश्य स्थानीय कार्यपालिकायाः पदाधिकारिभिः स्वस्य स्थानीय स्तरे निर्वाचनस्य प्रचारं न कर्तुं, अन्य स्थानीय स्तरेषु गमनसमये सर्वकारीय साधनानि जनशक्तिं च न प्रयोक्तुं च निर्दिष्टं वर्तते। आयोगेन अस्यैव कार्तिकस्य सप्तदशात् दिवसात् पूर्वं प्रदर्शनं जनसभां कोणसभां संचारमाध्यमैः प्रचार प्रसारौ च न विधातुमपि निर्दिष्टमस्ति। एवमेव आयोगेन कस्यचित् नैजगृहे भूमौ च सार्वजनिक भवने उद्याने मार्गाणां विद्युत्स्तम्भेषु सार्वजनिक स्थलेषु वा दलस्य ध्वजं दलस्य प्रत्याशिनो वा निर्वाचन चिह्नं च स्थापयितुं न शक्यन्ते इति ज्ञापितमस्ति। निर्वाचन आचार संहितायाः उल्लंघने विहिते सति दण्डनं प्रत्याशितायाः निरसनं च विधातुं शक्येते इत्यतः आचार संहितायाः विशेषेण पालनाय आयोगेन राजनैतिक दलानि प्रत्याशिनश्च अनुरुद्धाः वर्तन्ते। मार्गशीर्ष मासस्य चतुर्थे दिवसे सम्पत्स्यमानस्य प्रतिनिधि सभायाः प्रदेश सभानां च सदस्यानां निर्वाचनस्य अन्तर्गतायाः प्रत्यक्ष प्रणाल्याः पक्षे गतदिनं यावत् एककोट्याः सप्तत्रिंशत सहस्राणां च मतपत्राणां मुद्रणं सम्पन्नमिति निर्वाचन आयोगो ज्ञापयति। मुद्रितानां मतपत्राणां मध्ये प्रतिनिधिसभायाः पक्षे पञ्चाशत् लक्षाणि त्रयोदश सहस्राणि च प्रदेशसभानां पक्षे पञ्चाशत् लक्षाणि चतुर्विंशति सहस्राणि च सन्तीति आयोगेन ज्ञापितं वर्तते। आयोगस्य अनुसारेण प्रतिनिधिसभायाः पक्षे सल्यान, डोल्पा, मुगु, जुम्ला, कालीकोट, हुम्ला, जाँजरकोट, दैलेख, रूकुमा पश्चिम, सुर्खेता, बाजुरा, बजाङ, डोटी, दार्चुला, बैतडी, डडेलधुरा जनपदानां प्रत्यक्ष प्रणाल्याः पक्षस्य मतपत्राणां मुद्रणं सम्पन्नं वर्तते। एवमेव प्रदेशसभानां कृते सल्यान, डोल्पा, मुगु, जुम्ला, कालीकोट, हुम्ला, जाँजरकोट, दैलेख, रूकुमा पश्चिम, सुर्खेत, बाजुरा, बजाङ, दार्चुला, बैतडी, अछाम जनपदानां कृते मतपत्राणां मुद्रणं सम्पन्नमस्ति। आयोगेन भक्तपुर स्थिते जनक शिक्षा सामग्री केन्द्र लिमिटेड संस्थाने मतपत्राणां मुद्रणं विधीयमानं वर्तते। नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली कथयति आसन्न निर्वाचनम् सामान्य निर्वाचनस्य अपेक्षयापि देशस्य भविष्य निर्माणस्य अवसरो वर्तते। झापा जनपदस्य धुलाबारी स्थाने अग्रणी कार्यकर्तृमेलाम् पूर्वेद्युः सम्बोधयन् अध्यक्ष ओली निर्वाचन आयोगेन निष्पक्षम् निर्वाचनम् विधास्यते इत्यत्र आत्मनः विश्वासोऽस्तीति अगदत्। असौ दलस्य नेतृन् कार्यकर्तृञ्च विदेहे आचार संहितायाश्च पूर्णतः पालनायै अन्वरुणत्। नेकपा एकीकृत समाजवादी दलेन दलाध्यक्षस्य माधव कुमार नेपालस्य संयोजकत्वे केन्द्रीय निर्वाचन परिचालन समितिः संगठिता वर्तते। ह्य उपविष्टेन दलस्य केन्द्रीय सचिवालय उपवेशेन अध्यक्षस्य नेपालस्य संयोजकत्वे दल केन्द्रीय समित्या केन्द्रीय आयोगैः केन्द्रीय परामर्शन परिषदा केन्द्रीय ज्येष्ठ कम्युनिष्ट मञ्चेन केन्द्रीय परिषदः पदाधिकारीभिः प्रदेश समितिनां पदाधिकारीभिः जनवर्गीय संघटनानां पदाधिकारीभिश्च सम्मिलिता एकाधिक पञ्चविंशति शत सदस्यानां केन्द्रीय निर्वाचन परिचालन समितिः संगठिता वर्तते। एवमेव महासचिवस्य डाक्टर बेदुराम भूषालस्य संयोजकत्वे द्वाविंशति सदस्यीय निर्वाचन परिचालन केन्द्रीय सचिवालयश्च संगठितो वर्तते। सचिवालयेन निर्वाचनस्य परिचालनस्य व्यवस्थापनस्य च सम्बन्धे तत्कालम् आवश्यक निर्णयाः विधातुं शक्यन्ते इति ज्ञापितमस्ति। राष्ट्रस्य बालबालिकाभ्यो भिटामिन ए नाम्नः पौष्टिक तत्वस्य पायनं युकानाशकौ सदस्य भक्षणं च गतदिनवत् अद्यापि क्रियमाणौ वर्तेते। मास षड्कात् ऊनषष्टि मास पार्यन्तिकाभ्यो बालबालिकाभ्यो भिटामिन ए पौष्टिक तत्वस्य युकानाशकौ सदस्य च पायन कार्यक्रमोऽस्तीति स्वास्थ्य जनसंख्या मन्त्रालयो ज्ञापयति। काष्ठमण्डप जनपद न्यायालयेन बलात्कारस्य आक्षिप्तारोपम् राष्ट्रिय क्रिकेट क्रीडकं सन्दीप लामी छानेविदम् अनुसन्धातुं चतुर्णां दिनानाम् अवधि वर्धितो वर्तते। प्रहरिणा ह्यो लामी छानेविदम् विरुध्य अनुसन्धानं सञ्चलदस्तीति उल्लिख्य सप्ताहनां दिनानाम् अवधिं दातुं न्यायालय अनुरुद्धः सन्नपि न्यायालयेन केवलं चतुर्णां दिनानाम् अवधि प्रवर्धितो वर्तते। लामी छानेविदम् सप्तदश वर्षीया किशोरी बलात्कृतेति आरोप्य गताश्विन मासस्य विंशे दिवसे त्रिभुवनान्तर्राष्ट्रिय विमानस्थलादेव प्रहरिणा निगृह्य नियन्त्रण संस्थाप्य च अनुसन्धानम् विधीयमानम् वर्तते। अधिकार दुरूपयोगानुसन्धान आयोगेन पेयजल स्वच्छीकरण महाशाखा कार्यालयस्य रामेछापवर्तिन्यः तृतीय शाखायाः स्थपतिः नवराज सत्यालः जलनलिका व्यवस्थापकः बखत बहादुर थापा च अष्टाविंशत्याः लक्षाणाम् रूप्यकाणाम् उत्कोचेन सहितौ निगृहीतौ स्तः। एताभ्याम् षोडश लक्षाणि रूप्यकाणि द्वादश लक्षाणाम् रूप्यकाणाम् वित्त निष्कासन पत्रम् चाहत्य अष्टाविंशतिः लक्षाणि रूप्यकाणि अधिगृहीतानि सन्तीति आयोगस्य प्रवक्ता श्याम प्रसाद भण्डारी ज्ञापयति। एवमेव आयोगेन कञ्चनपुर जनपदस्य महेन्द्र नगर विकास समिते अध्यक्षेण गोपाल रसाइली इत्यनेन सहितानाम् सप्तत्रिंशतो जनानाम् विरूद्धे अवैधानिक लाभम् हानिम् च प्राप्य भ्रष्टाचरितम् इत्यारोपे ह्यो विशेष न्यायालये न्यायिक प्रकरणं पञ्जीकारितं वर्तते। भारतीय राष्ट्रिय कांग्रेस दलस्य अध्यक्ष पदे मल्लिकार्जुन खड्गे निर्वाचितो वर्तते। सम्पूर्णेषु व्यक्तेषु नवसहस्रेषु पञ्चाशीत्यधिक शतत्रय च मतेषु खड्गे इत्यनेन सप्तसहस्राणि सप्तनवत्यधिकाष्टशतं च मतानि प्राप्तानि। एतदीय प्रतिद्वन्दिना शशि थरूर इत्यनेन च आसन्न द्वासप्तत्यधिक सहस्रं मतानि प्राप्तानीति दलेन ज्ञापितं वर्तते। कांग्रेस दलस्य सप्तत्रिंशदधिक शतवर्षीय इतिहासे षष्ठवारं दलस्य अध्यक्ष पदाय गत सोमवासरे निर्वाचनम् विहितम् आसीत्। दलस्य नेतृत्वम् अधिकांश समय नेहरू गान्धी परिवारेषु निहितम् आसीत्। संयुक्त राष्ट्रसंघस्य महासचिवः एन्टोनियो गुटेरेस दिवसद्वयव्यापिनः औपचारिक भ्रमणस्य क्रमे मंगलवासरस्य रात्रौ भारतम् समागत इति भारतीय विदेश मन्त्रालयो ज्ञापयति।